शुद्धद्रव्यस्वरसभवनात् किं स्वभावस्य शेष मन्याद्रव्यं भवति यदि वा तस्य किं स्यात् स्वभावः ज्योत्स्नारूपं स्नपयति भुवं नैव तस्यास्ति भूमिर्।